हरि ओम नमस्ते रुद्रमन्यवभूतो तदिखवे नमः बाहुभ्यामुदते नमः जाते रुद्र शिवा तनूर घोरा पापकाशिनी दयानस्तन्वा शन्तमया गिरिशन्ताभिचाकशी चामिखुं गिरिशन्त हस्ते बिभर्ख्यसवे शिवां गिरित्रताम् कुरु माहि गूंसी पुरुखं जगत्त शिवेन वचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमि जगदयक्ष्मगुं सुमना असत्त अध्यवो जदधि वक्ता प्रथमो दैव्योऽभिख अहीश्च सर्वान् जमयन् सर्वाश्च जातु धान्यो धराजीः परा सुव असौजस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चैदगुं रुद्रा अभितो दिक्षुश्रिताः सहस्रशो वैखा गुहे धीमहे असौजो वसर्पति नीलग्रीवो विलोदितः उदैनं गोपा अदृशन्न दृशन्नुतहार्जः सदृष्टो मृगयाति नः नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुखे अथो जे अस्य सत्त्वानो हन्तेभ्यो करनमः प्रमुच धन्वनस्त्वमुभयोरार्ज्ञोर्ज्याम चाश्च देहस्तमिकवः पराता भगवो वप विच्छन्धनुः कपर्दिनो विशल्यो बाणवा उत अनेशन्नस्य जा इखव आभुरस्य निखङ्गधिः जाते हेतिर्मीधुष्टमहस्ते बभूवते धनुः तया मया परिपुष परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो जति कुधिस्तवारे अस्मन्निधेहितम् अवतत्य धनुष्ट्वगुं सहस्राक्षशते खुधे निशीर्ज शल्यानां मुखा शिवो नः सुमना भव नमस्त आयुधायानादताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्यातव धन्वने मानो महान्तमुदमानो अर्भकमान उक्षन्तमुदमान उक्षितम् मानो वधीः पितरमोदमातरं मानः प्रियास्तन्वो रुद्ररीरिकः मानस्तोके तनये मान आयुगि मानो गोकुमानो अश्वे कुलीलिकः मानो वीरानृद्रभामिनो वधीर्हविक् मन्दः सदमि त्वा हवामहे नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षे हरिकेशेभ्यः पशूनां पतये नमो नमः शक्तिञ्जराय त्रिचीमते पतीनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमः नमो बभ्रुषाय व्याधिने नानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायाततायिने क्षेत्राणां पतये नमो नमः सूताय हन्त्यै वनानां पतये नमः नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो भुवतये श्रीमते तस्कराणाम्बतये नमो नमः श्रीकार्येभ्यो जिगाघुसद् व्योमुष्रताम्बतये नमो नमो श्रीमद्भ्यो नक्तचरद्भ्यो विकृतानाम्बतये नमः नमः उश्रीकिणे गिरिचराय कुलुचानाम्बतये नमो नमः इकुमद्भ्यो नमः सोऽभ्याय च प्रतिसर्जाय च नमो जाम्याय च क्षेम्याय च नमः श्लोक्याय च वसान्याय च नमः उर्वर्जाय च खल्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुकेणाय च शूरथाय च नमः शूराय च वपेदिने च नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूधिने च yaja namah kulya yaja sarasya yaja namo nadeya yaja vaishanta yaja namah kupya yaja vatya yaja namo vidya yaja tapya yaja namo medya yaja vidyutya yaja namo varkya yaja varkya yaja namo Shupataye cha nama ugraya cha bhimaya cha namo devadhaya cha durevadhaya cha namo hantre cha haniyase cha namo vrikshebhyo harikeshebhyo namastaraya namaha shambhavaya cha mayo bhavaya cha namaha shankaraya cha mayaskaraya cha namaha shivaya cha shivatara namaha parchaya cha varchaya cha namaha pratararaya chottararaya cha namastirthyaya cha kulyaya cha namaha shaktyaya cha penyaya cha namaha sikatyaya cha pravachaya cha namaha tigushilaya cha kshayanaya cha namaha kapardhine pulastaye cha nama hirelyaya cha prapatyaya cha namo vrajyaya cha goshtyaya cha namastalpyaya cha gejaya cha namo hridajaya cha nivekhyaya cha namaha kartyaya cha gavareshthaya cha namaha shukhyaya cha harityaya cha namaha namaha parraya cha parrashadaya cha nama utkuramadaya cha vrignate cha nama akhidate cha prakhidate cha nama ikukre dhyodhanukre dhyashchavo namo namo vahakirike dhyodevana gumhridaye dhyo namo vichinvake dhyo namo vrikshirake pate daritra neela lohita asam prajana mekham pashunam mabhe marom mojana akinchana mamatta ima rudraya tavase kapardine kshayat dviraya prabhara mahe mati jatha shamasat tripade chatuk pade vrishvampur tangrame jate rudra shiva tanuhu shiva vishwaha bhekhaji shiva rudasya bhekhaji tayano mrida jivase parino rudrasya hetir vrida tu paritve khasya durmadira dhayo avastira maghavad yasanukhva midvasto kaya tanayaya mrida tama shiva tama shivo naha sumana bhava paramev vriksha ayudhan nidhaya krityam vasana achara pinakam vibhrata gari vikirtra vilohita namaste astu bhagavaha jaste sahasra gunhe tayonyamas maniva pantuta sahasrani sahasra shopa asmin mahatyarnave darikshe
देवाः शितिकण्ठा दिवगू रुद्रा उपश्रिताः एकाकुसहस्रयोजनेव धन्वा नितन्मसि नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः एकाकुसहस्रयोजनेव धन्वा नितन्मसि जेवृक्षे कुशकृञ्जरा नीलग्रीवा विलोहिताः एकाकुसहस्रयोजनेव धन्वा नितन्मसि जे भूतानामधिपतयो विशिखा सह कपर्तिनः एकाकुसहस्रयोजनेव धन्वा नितन्मसि जे पथां पथि रक्षय ऐलबृदा आयुर्जुधः एकाकुसहस्रयोजनेव धन्वा नितन्मसि जे तीर्थानि प्रचरन्ति स्मिका हस्तानि खङ्गिणः एकाकुसहस्रयोजनेव धन्वा नितन्मसि जेर्णे कुपिभ्यन्ति पार्श्वे कुपिबतो जनान्न एकाकुसहस्रयोजनेव धन्वा नितन्मसि ज एतावतश्च भूयाकुसश्च दिशो रुद्रा वितस्थिरे एकाकुसहस्रयोजनेव धन्वा नितन्मसि नमोऽस्तु रुद्रेभ्यो जेति विजेखां वर्णमिखवः तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशो लीचीर्दशोर्ध्वाः तेभ्यो नमो अस्तु तेनो वन्तु तेनो मृडयन्तु ते जनो द्वेष्टितमेकाञ्जम्भे दध्मः नमोऽस्तु रुद्रेभ्यो चेतरिक्षे जेखां वादशिखवः तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशो लीचीर्दशोर्ध्वाः तेभ्यो नमो अस्तु तेनो वन्तु तेनो यन्तु ते जन्द्विग्मोचश्चनो द्वेष्टितमेकाञ्जम्भे दध्मः नमोऽस्तु रुद्रेभ्यो चे पृथिव्याञ्चेखामन्नमिखवः तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशो लीचीर्दशो